इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। लोकसभा निर्वाचनानां तृतीय चरणाय प्रचाराभियानं परां काष्ठां भजते। प्रमुख राजनीतिक दलानां शीर्ष नेतारः स्व स्व प्रत्याशिनां जनसमर्थनाय यथाशक्ति प्रयतन्ते। अस्मिन् चरणे मे मासस्य सप्तमे दिनांके दशसु राज्येषु केन्द्रशासित प्रदेशद्वये च मतदानानि भविष्यन्ति। केन्द्रीय गृहमन्त्रालयेन राष्ट्रिय राजधान्यां तत्पार्श्ववर्ति क्षेत्रेषु च अनेकेषु विद्यालयेषु विस्फोटन तर्जना विषयकं ईमेल पत्रकं केवलं मृषा अपलापः प्रतिपादितः। मन्त्रालयेन अभिभावकाः छात्राश्च प्रोक्ताः यत् ते तर्जनया अनया आपीडग्रस्ताः नैव भवेयुः। अथ च मन्त्रालयेन इदमपि प्रतिपादितं यत् दिल्ल्यारक्षिबलं सुरक्षाभिकरणानि च अस्मिन् प्रकरणे आवश्यकान् पदक्षेपान् उपक्रमांश्च उत्थापयन्ति। दिल्ल्यारक्षिबलेन विद्यालयेषु विहितेषु अन्वेषणेषु न किमपि सन्दिग्धम् अधिगतम्। अस्मिन् प्रसंगे दिल्ल्याः उपराज्यपालेन विनय कुमार सक्सेना इत्यनेन दिल्ल्यारक्षि आयुक्तं संजय अरोड़ावर्यं विस्तृतं विवरणम् अभियाचितमस्ति। दिल्ल्यारक्षिबलं निर्दिष्टमस्ति यत् दोषिणाम् अभिज्ञान पुरस्सरं तेषु कार्यान्वयनम् अपि सुनिश्चितं कुर्यात्। सक्सेनावर्येण प्रोक्तं यत् उपद्रविणः दोषिणश्च न कदापि क्षमिष्यन्ते। अथ च सक्सेना महाभागेन कतिपय विद्यालयानां निरीक्षण यात्रापि सम्पादिता, यत्र विस्फोटक स्थापनस्य मृषा सूचना प्रख्यापिता आसीत्। अमुना संचारमाध्यमैः समं सम्भाषणावसरे प्रोक्तं यत् अस्मिन् विस्फोट तर्जना विषये त्वरितमेव कार्यान्वयनम् आचरितम्। दिल्ल्यारक्षिबलेन तर्जनापत्रकस्य स्रोतसौ विषयेऽपि अभिज्ञानं स्वीकृतमस्ति। राष्ट्रियान्वीक्षणाभिकरणेन एनआईए इत्यनेन ह्यः अटारी मादक पदार्थ प्रसंगे एकं भूयोपि निगडनं कृतमस्ति। अनेन निगडनेन साकम् एव साम्प्रतं यावत् निगडितानां जनानां संख्या संवर्ध्य अष्टौ जाता। अभिकरणस्य दलैः दिल्ल्याः दरियागंज क्षेत्रे सहसान्वीक्षणं कृतमासीत्, यत्र नैकानि संदिग्ध विवरणजातानि अधिगतानि आसन्। तदनु तत्रैव आरोपी अपि धृतः। ध्येयमस्ति यत् मादकपदार्थानां विक्रयेण समर्जितं धनं हवाला इति अवैधमार्गेण विदेशेषु सम्प्रेषणे अस्य निगडितस्य आरोपिणः महती भूमिका अवर्तत। ऐषमः अप्रैलमासे सकल वस्तु सेवा कर संग्रहे साम्प्रतं यावत् सर्वाधिकः 10,000,000,000,000 रूप्यकाणां संग्रहः समंकितः अस्ति। वित्तमन्त्रालयेन प्रतिपादितं यत् एषः करसंग्रहः वार्षिकाधारेण प्रतिशतं 10.4% महत्वपूर्णवर्धनेन समृद्धमस्ति। दक्षिणचीनस्य ग्वादोंग प्रान्ते प्रबलवृष्ट्या एकस्य राजमार्गस्य आंशिकध्वंसनात् न्यूनातिन्यूनं 24 जनाः मृत्युम् उपगताः। अस्मिन् क्षेत्रे कतिपयदिनेभ्यः प्रबलवृष्ट्या जलौघभूस्खलन समस्यापि समुत्पन्नास्ति। राजमार्गे साहाय्योद्धार कार्यं सजवं प्रवर्तते। अन्ते क्रीडावार्तासु। आईपीएल इति इण्डियन प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां ह्यः चेन्नई नगरे एमए चिन्नास्वामी क्रीडांगणे आयोजिते द्वन्द्वे पंजाब किंग्स दलेन चेन्नई सुपर किंग्स दलं 7 क्रीडकैः पराजितम्। अद्य हैदराबादे सनराइजर्स हैदराबाद दलं राजस्थान रॉयल्स इत्यनेन दलेन सह स्पर्धिष्यते।